अथ व्ययवर्गः चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः मुहुः पुनः पुनः शश्वत् अभीक्ष्णमसकृत्समाः स्राग्झटित्यञ्जसाह्नाय द्राङ्मक्षुसपरिद्रुते बलवत्सुष्ठु किमुत स्वस्त्यतीव च निर्भरे पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने यत्तद्यतस्ततो हेतौ असाकल्ये तु चिच्चना कदाचिज्जातु सार्धं तु साकं सत्रा समं सह आनुकूल्यार्थकं प्रार्थमं व्यर्थके तु वृथा मुधा आहो उताहो किमुत विकल्पे किं किमूत च तु हि च स्मः वैपादपूरणे पूजने स्वती दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि तिर्यगर्थे साचितिरोऽप्यथ सम्बोधनार्थकाः स्युष्प्याट्पाटङ्गहे हैभोः समया निकषा हिरुक् अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः स्वाहा देवहविर्दाने श्रौषड्वौषट्वषट् स्वधा किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ववा यथा तथैवैवम् साम्येहो हि च विस्मये मौने तु तूष्णीं तूष्णीकाम् सद्यः सपदि तत्क्षणे दिष्ट्या समुपजोषं चेत्यानन्देथान्तरेऽन्तरा अन्तरेण च मध्ये स्युः प्रसह्यतु हठार्थकम् युक्ते द्वे साम्प्रतं स्थाने अभीक्ष्णं शश्वदनारते अभावेन ह्यानो नापि मास्ममालं च वारणे पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् प्राकाश्ये प्रादुरावि स्यात् ओमेवं परमं मते समन्ततस्तु परितः सर्वतो विश्वगित्यपि अकामानुमतौ काममसूयोपगमेस्तु च ननु च स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने निःश्रमं दुःश्रमं गर्ह्ये यथास्वन्तु यथा यथम् मृषा मिथ्या च वितथे यथार्थं तु यथा तथम् स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः प्रागतीतार्थकम् नूनमवश्यम् निश्चये द्वयम् संवद्वर्षे वरे त्वर्वागामेवम् स्वयमात्मना अल्पे नीचैर्महत्युच्चैः प्रायो भोम्यद्रुते शनैः सना नित्ये बहिर्बाह्ये स्मातीते स्तमदर्शने अस्ति सत्त्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि हुंतर्के स्यादुषा रात्रेः अवसाने नमो नतौ पुनरर्थेऽङ्गनिन्दायां दुष्टुसुष्ठु प्रशंसने सायं साये प्रगे प्रातः प्रभाते निकषान्तिके परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति अद्यात्रान्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् तथा धरान्यान्यतरेतरात् पूर्वेद्युरादयः उभयद्युश्चोभयेद्युः परे त्वन्हि परेद्यवी ह्योगतेनागतेऽह्निश्वः परश्वस्तु परेहनि तदा तदानीं युगपत् एकदा सर्वदा सदा एतर्हि सम्प्रतीदानीम् अधुना साम्प्रतं तथा दिग्देशकाले पूर्वादौ प्रागुदक् प्रत्यगादयः इत्यव्ययवर्गः।